एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रधानमन्त्री केपी शर्मा ओली संयुक्त राष्ट्रसंघस्य 79 महासभायां भागं गृहीत्वा ह्यः स्वदेशं प्रत्यागतो वर्तते स्वदेशं प्रत्यागमनानन्तरं त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे आयोजिते पत्रकार सम्मेलने प्रधानमन्त्री ओली अल्पविकसितैः राष्ट्रैः षोडव्याहनेः क्षतिपूर्तेः विषयः विश्व समुदायस्य समक्षं स्पष्टतया उपस्थापितः इति असूचयत् प्रधानमन्त्री ओली विपद्भ्यः पूर्वमेव सर्वकारेण सुरक्षितरूपेण स्थातुं सर्वे सूचिताः आसन् परं काष्ठमण्डप उपत्यकायाम् एतादृशी क्षति कल्पितापि नासीत् इति चर्चयन् विपदः पश्चात् उद्धार सहयोग कार्याणि सर्वकारेण तत्परतया विधीयमानानि सन्तीति अवोचत् सर्वकारेण इतोऽपि तीव्रगत्या उद्धारस्य सहयोगस्य च कार्यम् करिष्यते इति दृढतां प्रकटयन् प्रधानमन्त्री ओली विपत्सु निमज्य मृतेभ्यो जनेभ्य श्रद्धाञ्जलिं प्रयच्छन् आगतानां जनानां च शीघ्रं स्वास्थ्यलाभाय कामनां व्यक्तवान् तत्पूर्वं प्रधानमन्त्रिणः ओलिनः त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे सभामुख देवराज घिमिरे राष्ट्रियसभायाः अध्यक्ष नारायण प्रसाद दाहालः उपप्रधानमन्त्रिणौ मन्त्रिणः विशिष्ट पदाधिकारिणश्च स्वागतं विहितवन्तः तत्पूर्वं पत्रकार सम्मेलने परराष्ट्र मन्त्रालयस्य प्रवक्ता अमृत बहादुर राई प्रधानमन्त्रिणः ओलिनः अमेरिका देश भ्रमणस्य विषयं ज्ञापयन् वैश्विक मञ्चे नेपाल सदृशैः अल्पविकसितैः राष्ट्रैः सह्यमानानां समस्यानां विज्ञापनाय भ्रमणं सफलम् अस्तीति असूचयत् अविरलवृष्टेः पश्चात् दुरापन्नैः जलविप्लव भूस्खलनैः आराष्ट्रं मृतानां जनानां संख्या 99 प्राप्तास्ति अस्यैव आश्विनस्य एकादश दिवसात् ह्यस्तन दिवसं यावत् जलविप्लव भूस्खलनेषु निपत्य 29 जना विलुप्ता सन्ति चेत् 42% जना आता वर्तन्ते इति नेपाल प्रहरिण केन्द्रीय प्रवक्ता दानबहादुर कार्की अज्ञापयत् तदवसरे काभ्रे सिन्धुली मार्ग खण्डस्य अन्तर्गते मंगलटार स्थाने भूस्खलनेन अवरूद्धं मार्गम् एकपक्षरूपेण सञ्चाल्य 900 यात्रिणः उद्धृताः सन्ति इति च प्रवक्ता कार्की असूचयत् विपद व्यवस्थापन कार्यकारी समितेः उपवेशेन जल विप्लव भूस्खलन प्रवृत्तिषु विपत्सु निपत्य विलुप्तानां व्यक्तिनां परिवारेभ्यः सहयोगं प्रदातुं निर्णीतं वर्तते सिंहप्रासादे ह्य उपविष्टेन समितेः उपवेशेन जल विप्लव भूस्खलन प्रवृत्तिषु विपत्सु निपत्य विलुप्तेषु जनेषु 10 यावदपि अप्राप्तेषु सत्सु मृतक समानं मत्वा तेषां परिवारेभ्यः सहयोग वित्तं प्रदापयितुं निर्णीतमिति उपवेशस्य पश्चात् गृहमन्त्रालयस्य वक्ता ऋषिराम तिवारी अज्ञापयत् उपवेशेन सहयोग वितरणम् एकद्वारा प्रणाल्या विधातुं विपत् पीडितानां जनानां कृते अस्थायीयावासानां निर्माणाय 7 अभ्यन्तरे प्रथमचरणस्य अनुदान वित्तं जनपद विपद व्यवस्थापन समितेः माध्यमेन प्रदातुं च निर्णीतं वर्तते राजमार्गेषु असहायावस्थां प्राप्य गन्तव्यस्थानानि प्राप्तुम् असमर्थानि यात्रिणः गन्तव्यस्थानानि यावत् प्रापयितुं भग्नमार्ग सेतु प्रवृत्तीनां संरचनानां पुनर्निर्माणं कृत्वा सुचारू सञ्चालनस्य कार्यं पूर्वाधार यातायात मन्त्रालयस्य माध्यमेन अग्रे वर्धयितुं च उपवेशेन निर्णीतं वर्तते नेकपा माओवादी केन्द्रस्य प्रदेश सभा सदस्यैः संघीय संसद सदस्यैश्च जल विप्लव भूस्खलन पीडितानां कृते केन्द्रीय सहयोग कोषे 10 पारिश्रमिकं प्रदास्यते ह्य उपविष्टेन माओवादी केन्द्रस्य पदाधिकारिणाम् उपवेशेन विहितस्य निर्णयस्य अनुसारेण केन्द्रीय सहयोग कोषं संस्थाप्य माओवादी केन्द्रस्य अन्तर्गतेभ्य निकायेभ्य समितिभ्यश्च परिपत्रं विहितमस्ति इति ज्ञापितं वर्तते एवमेव माओवादी केन्द्रेण स्थानीय स्तरस्य जनप्रतिनिधिभ्य अपि स्वैच्छिकरूपेण सहयोगं विधातुं परिपत्रं विधातुं निर्णीतं वर्तते बागमती प्रदेश सर्वकारेण विपत्सु निपत्य त्यक्त प्राणानां जनानां परिवारेभ्य प्रतिजनं सहयोग स्वरूपाणि 100,000 रूप्यकाणि प्रदीयन्ते ह्य उपविष्टेन बागमती प्रदेश सर्वकारस्य विपद कार्यकारी समिते उपवेशेन विपदि निपत्य त्यक्त प्राणानां जनानां परिवारेभ्य प्रति परिवारं सहयोग स्वरूपाणि 100,000 रूप्यकाणि प्रदातुं निर्णीतमिति आन्तर विषय विधि मन्त्री सूरज चन्द्र लामिछाने अज्ञापयत् इति समाचारः।